हरे कृष्णा।
नेक्स्ट वी विल लर्न टेक्स्ट 27 फ्रॉम चैप्टर 14, द थ्री मोड्स ऑफ मटेरियल नेचर फ्रॉम भगवद गीता एज इट इज। प्लीज रिपीट आफ्टर मी थ्री टाइम्स। ब्रह्मणो
ब्रह्मणो ब्रह्मणो ब्रह्मणो
ही
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 प्रतिष्ठाहम
प्रतिष्ठाहम प्रतिष्ठाहम प्रतिष्ठाहम
अमृतस्य
अमृतस्य अमृतस्य अमृतस्य
व्ययस्य च
व्ययस्य च व्ययस्य च व्ययस्य च
शाश्वतस्य च
शाश्वतस्य च शाश्वतस्य च शाश्वतस्य च
धर्मस्य
धर्मस्य धर्मस्य धर्मस्य
सुखस्यैकान्ति
सुखस्यैकान्ति सुखस्यैकान्ति सुखस्यैकान्ति
कस्य च
कस्य च कस्य च कस्य च।
Do you have any doubt in pronunciation?
No.
Okay, please repeat after me three times. ब्रह्मणो हि प्रतिष्ठाहम्
ब्रह्मणो हि प्रतिष्ठाहम् ब्रह्मणो हि प्रतिष्ठाहम् ब्रह्मणो हि प्रतिष्ठाहम्
अमृतस्य व्ययस्य च
अमृतस्य व्ययस्य
अमृतस्य व्ययस्य च
अमृतस्य व्ययस्य च अमृतस्य व्ययस्य च अमृतस्याय व्ययस्य च
अमृतस्य व्ययस्य च
अमृतस्य व्ययस्य च अमृतस्य व्ययस्य च अमृतस्य व्ययस्य च
शाश्वतस्य च धर्मस्य
शाश्वतस्य धर्मस्य शाश्वतस्य च धर्मस्य शाश्वतस्य धर्मस्य
सुखस्यैकान्तिकस्य च
सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च।
I'll repeat the whole verse. ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्य व्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्य व्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।
Translation by His Divine Grace A.C. Bhaktivedanta Swami Srila Prabhupada. And I am the basis of the impersonal Brahman, which is immortal, imperishable and eternal, and is the constitutional position of ultimate happiness.